एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। नेपाले गतदिने अतिरिक्तेषु अष्टसहस्रेषु त्रित्तर शतद्वय च जनेषु कोरोना विषाणो संक्रमणं पुष्टिभूतं वर्तते। विंशतेः सहस्राणां षडशीत्यधिक शतद्वयस्य च निदर्शनानां पीसीआर विधिना विहितेन परीक्षणेन अष्टसहस्रेषु षड्त्रिंशद् उत्तर शते च त्रिनवत्यधिक षड्शतस्य निदर्शनानां एन्टीजेन विधिना विहितेन परीक्षणेन च सप्तषष्ट्यां जनेषु संक्रमणं पुष्टिभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। एकनवत्यधिकाष्टशतञ्च जना कोरोना संक्रमणात् मुक्ताः सन्ति। ह्यस्तनावधि संक्रमणात् मुक्तेः अंकमानः प्रतिशतं 10.4% वर्तते। कोरोना विषाणोः संक्रमणस्य कारणेन ह्य अतिरिक्ताः 90% जनाः मृता इति मन्त्रालयस्य तथ्याङ्काः दर्शयन्ति। अनेन सह नेपाले कोरोना संक्रमणस्य कारणेन मृतानां जनानां संख्या 5.1% प्राप्ता वर्तते। सम्प्रति आरष्टं 14.2% सक्रिय संक्रान्ताः जनाः सन्ति। एतेषु सहस्रस्य 90.5% च जनानां सघनोपचार कक्षेषु 90.3% च जनानां कृत्रिम श्वास प्रश्वासोपकरणेषु उपचारः विद्यमानोस्तीति स्वास्थ्य मन्त्रालयो ज्ञापयति। मन्त्रालयस्य अनुसारेण इदानीम् 41 जनपदेषु 15 जनपदेषु च 102 अधिक संख्यायां सक्रिय संक्रान्त जनाः उपचार्यमाणाः सन्ति। नेपाले कोविड 19 विषाणोः नूतन परिवर्तितं स्वरूपम् अभिज्ञातमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। देशस्य विभिन्न स्थानेभ्य 35 निदर्शनानां विश्व स्वास्थ्य संगठनस्य सहयोगेन भारते आनुवंशिक जीवाणोः परीक्षणेन प्रतिशतं 97 निदर्शनेषु नवीन परिवर्तितं स्वरूपम् अभिज्ञातमिति मन्त्रालयस्य सहप्रवक्ता डा समीर कुमार अधिकारी अज्ञापयत्। महामारी संक्रामक रोग नियन्त्रण महाशाखाया निर्देशकः डा कृष्ण पौडेलः भारते सम्प्रति दृष्टं कोविड 19 परिवर्तित स्वरूपमेव नेपालेऽपि अभिज्ञातमस्ति। एतच्च पूर्वापेक्षया अधिक संक्रामकं संकटपूर्णं चास्तीति अज्ञापयत्। स्विट्जरलैण्ड सर्वकारेण कोरोना विरोधिनी युद्धे सहयोगाय अस्मिन्नेव सप्ताहे नेपालं विभिन्नाः स्वास्थ्य सामग्र्यः प्रेष्यमाणाः वर्तन्ते। उपप्रधानमन्त्रिणा ईश्वर पोखरेलेन सह ह्यः विहिते दूरभाष संवादे नेपालस्य कृते स्विट्जरल्याण्ड देशस्य राजदूतः एलिजाबेथ भन क्यापिलर नेपालाय विभिन्नानां स्वास्थ्य सामग्रीणां सहयोगः विधीयमानो वर्तते इति अज्ञापयत्। कोविड 19 संक्रमणस्य न्यूनीकरणाय क्रियान्वितायाः निषेधाज्ञायाः अवधौ कोषागारः वित्तीय संस्थाश्च ग्राहकेभ्यः ऋण प्रतिग्रहणे कथंविधमपि दण्डन शुल्कम् अतिरिक्तं शुल्कं वा ग्रहीतुं न शक्नुवन्ति। वर्तमानार्थिक वर्षस्य मौद्रिक नीतेः तृतीयां त्रैमासिकीं समीक्षां सार्वजनिक कुर्वता नेपाल राष्ट्र कोषागारेण एवं ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाविदेन कोरोना विषाणो तृतीय लहरीया कतिचित मासाभ्यन्तरे नेपाले आगमनस्य सम्भावना अस्ति, अनया च बालबालिकासु विशेषतः प्रभाव स्रक्ष्यते इति विज्ञानं कथनं प्रति सर्वकारस्य ध्यानम् आकर्षितं वर्तते। असौ ह्य सामाजिक सञ्जालस्य माध्यमेन केन्द्रे सप्तसु एव प्रदेशेषु च बालबालिकानां कृते चिकित्सालयेषु विशेषकक्षाणां सघनोपचार कक्षाणां च कृते पूर्वकार्यं विधातुं सर्वकारम् अन्वरुणत। पूर्व प्रधानमन्त्रिणा देउवाविदेन द्वादश वर्षेभ्यः अधिक वयस्काभ्यो बालबालिकाभ्यः टीकाकरण प्रारभणस्य विषयेऽपि प्रक्रियाम् अग्रे वर्धापयितुं सर्वकारः अनुरुद्धो वर्तते। कोविड 19 संक्रमणस्य निरोधन नियन्त्रणयोः कृते विभिन्नेषु जनपदेषु क्रियान्विता निषेधाज्ञा एवं सर्वकारेण संक्रमणस्य निरोधन नियन्त्रणोपचाराणां सन्दर्भे प्रदत्तस्य निर्देशनस्य क्रियान्वयनस्य अवस्था च सन्तोषजनिका स्थिति गृहमन्त्रालयेन ज्ञापितं वर्तते। मन्त्रालयेन ह्य विज्ञप्तिं प्रकाश्य आदेशस्य प्रभावकारि क्रियान्वयनस्य सहजां परिस्थितिं सामान्यं च विधातुम् इदानीमपि अत्यावश्यकं वर्तते इत्यतः अतिरिक्तं सचेष्टा भवितुं सर्वे नागरिकाः अनुरुद्धाः सन्ति। हुम्ला जनपद कोविड 29 संकट व्यवस्थापन केन्द्रस्य ह्या उपविष्टेन उपवेशेन जनपदे 15 दिनानि निषेधाज्ञां वर्धयितुं निर्णीतं वर्तते। प्रमुख जनपदाधिकारिणः केन्द्रस्य संयोजकस्य च गणेश आचार्यस्य अध्यक्षतायाम् उपविष्टेन सर्वपक्षीयोपवेशेन प्रवेश बिन्दुषु नियन्त्रण प्रवृत्ति निर्णयाः विहिताः सन्ति। एवमेव कोरोना विषाणो संक्रमणस्य संकटस्य नियन्त्रणाय नुवाकोट जनपदे क्रियान्वितायाः निषेधाज्ञायाः अवधि 15 दिनानि प्रवर्ध्य अस्यैव ज्येष्ठ मासस्य 18 दिवसस्य रात्रौ 12 पर्यन्तं प्रापितो स्थिति प्रमुख जनपदाधिकारी जीवन प्रसाद दुलालः अज्ञापयत्। नेपाल विज्ञान प्रविधि प्रतिष्ठानेन नेपाले प्रथमवारं प्राणवायुवाही गोलाः उत्पाद्य परीक्षिताः सन्ति। प्राणवायुवाही गोलानाम् अभावस्य वर्तमान बेलायां प्रतिष्ठानेन ह्य नवीन प्राणवायुवाही गोलाः उत्पाद्य परीक्षिताः सन्ति। शिक्षा मन्त्री कृष्ण गोपाल श्रेष्ठ ह्य उत्पादनस्य अवलोकनं विधाय परीक्षणस्य शुभारम्भं व्यदधात्। नेपाल गंजवर्तिनी भेरी चिकित्सालये गतदिने तरलीकृत प्राणवायोः भरणं प्रारब्धम् अस्ति। प्राणवायु सहितस्य भण्डारणस्य परिह्यस्थापनमन्व ह्य तरलीकृत प्राणवायोः भरण कार्यं प्रारब्धं वर्तते। भेरी चिकित्सालयस्य प्रमुख डा प्रकाश थापा भारतात् तरलीकृतं प्राणवायुम् आनीय भण्डारणं विहितमिति अबोधयत्। नेकपा एमाले दलेन परस्परम् असहमतेः असहयोगस्य च वर्धनात्मकान् गतिविधिं न कर्तुं तथाविधाम् अभिव्यक्तिं न दातुं च दलपंक्तिः आहुता वर्तते। प्रधानमन्त्री मन्त्री परिषदः कार्यालये पूर्वेद्यो उपविष्टेन कार्यदलस्य उपवेशेन दलैकतायाः भावनां सहमतिं च वर्धयितुं परस्परम् अविश्वासस्य असहयोगस्य अन्तर्विरोधस्य च सर्जनात्मकान् गतिविधिं न कर्तुं च निर्णीतमिति एमाले दलस्य प्रवक्ता कार्यदलस्य सदस्य प्रदीप कुमार ग्यवाली अवोचत। प्रवक्ता ग्यवाली राष्ट्रिय सभायाम् आसन्नोपनिर्वाचने दलस्य प्रत्याशिने रामबहादुर थापा विधेयाय दलेन मतदानं कर्तुं निर्णीतमिति अज्ञापयत्। जनता समाजवादी दलेन राष्ट्रिय सहमतौ स्वस्यैव दलस्य नेतृत्वे वा सर्वकार निर्माणस्य सम्भावनायमेव सर्वकारस्य संघटनाय दलं तत्परम् अस्तीति ज्ञापितं वर्तते। ह्यो विज्ञप्तिं प्रकाश्य जसपा दलेन आत्मनो नेतृत्वेन विना प्रतिपक्ष एव स्थातुं निर्णीतम् इति ज्ञापितं वर्तते। जसपा दलस्य अध्यक्षद्वयस्य मन्त ठाकुरस्य उपेन्द्र यादवस्य च हस्ताक्षरयुतायां विज्ञप्तौ दले सृष्टां समस्यां विधानस्य अनुसारेण समाधास्यते इत्युल्लिखितं वर्तते इति समाचाराः।